शिवकवचम्। अस्य श्री शिवकवचस्तोत्र महामन्त्रस्य ऋषभयोगेश्वर ऋषिः अनुष्टुप् छन्दः श्रीसाम्ब सदाशिवो देवता ॐ बीजम् नमः शक्तिः शिवायेति कीलकम् मम साम्ब सदाशिवप्रीत्यर्थे जपे विनियोगः। ॐ सदाशिवाय अङ्गुष्टाभ्याम् नमः। नम गङ्गाधराय तर्जनीभ्याम् नमः। मम मृत्युञ्जयाय मध्यमाभ्याम् नमः। शिंशूलपाणये अनामिकाभ्याम् नमः। वाम् पिनाकपाणये कनिष्ठिकाभ्याम् नमः। यम् उमापतये करतलकरपृष्ठाभ्याम् नमः। ॐ सदाशिवाय हृदयाय नमः। नम गङ्गाधराय शिरसे स्वाहा। मम मृत्युञ्जयाय शिखायै वषट्। शिं शूलपानये कवचाय हुम्। वाम् विनाकपानये नेत्रत्रयाय वौषट्। यम् उमापतये अस्त्राय फट्। भूर्भुवः सुवरोम् इति दिग्बन्धः। ध्यानम् वज्रदंश्रम् त्रिनयनम् कालकण्ठमरिन्दमम् सहस्रकरमत्युग्रम् वन्दे शम्भुमुमापतिम् रुद्राक्षकङ्कणलसत्करदण्डयुग्मः फालान्तरालधृतभस्मसितत्रिपुण्ड्रः पञ्चाक्षरम् परिपठन् वरमन्त्रराजम् ध्यायन् सदा पशुपतिम् शरणम् व्रजेथाः। अतः परम् सर्वपुराणगुह्यम् निःशेषपापौघहरम् पवित्रम् जयप्रदम् सर्वविपत्प्रमोचनम् वक्ष्यामि शैवम् कवचम् हितायते। लम् पृथिव्यात्मने गन्धम् समर्पयामि। हम् आकाशात्मने पुष्पैः पूजयामि। यम् वायवात्मने धूपमाघ्रापयामि। रम् अग्न्यात्मने दीपम् दर्शयामि। वम् अमृतात्मने अमृतम् महानैवेद्यम् निवेदयामि। सम् सर्वात्मने सर्वोपचारपूजाम् समर्पयामि। ऋषभ उवाच नमस्कृत्य महादेवम् विश्वव्यापिनमीश्वरम् वक्षे शिवमयम् वर्म सर्वरक्षाकरम् नृणाम् शुचौ देशे समासीनो यथावत्कल्पितासनः जितेन्द्रियोजितप्राणश्चिन्तयेच्छिवमव्ययम् हृत्पुण्डरीकान्तरसन्निविष्टम् स्वतेजसा व्याप्तनभोऽवकाशम् अतीन्द्रियम् सूक्ष्ममनन्दमाद्यम् ध्यायेत्परानन्दमयम् महेशम् ध्यानावधूताखिलकर्म बन्धः चिरम् चिदानन्दनिमग्नचेताः षडक्षरन्याससमाहितात्मा शैवेन कुर्यात् कवचेन रक्षाम्। माम् पातु देवोऽखिल देवतात्मा संसारकूपे पतितम् गभीरे तन्नाम दिव्यम् वरमन्त्रमूलम् धुनोतु मे सर्वमघम् हृदिस्थम्। सर्वत्र माम् रक्षतु विश्वमूर्तिः ज्योतिर्मयानन्दघनश्चिदात्मा अणोरणीयानुरुशक्तिरेकः स ईश्वरः पातु भयादशेषात्। यो भूस्वरूपेण बिभर्ति विश्वम् पायात् स भूमेर्गिरिशोष्टमूर्तिः। योपाम् स्वरूपेण नृणाम् करोति सञ्जीवनम् सोऽवतु माम् जलेभ्यः। कल्पावसाने भुवनानि दग्ध्वा सर्वानि यो नृत्यति भूरिलीलः सकालरुद्रो वतु माम् दवाग्नेः मात्यादिभीतेरखिलाच्छतापात् प्रदीप्तविद्युत्कनकावभासो विद्यावराभीतिकुठारवाणिः चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्याम् स्थितो रक्षतु मामजस्रम् कुठारखेटाङ्कुशपाशशूल कपालमालाग्निकणान् ददानः चतुर्मुखो नीलरुचिस्त्रिनेत्रः पायादघोरो दिशि दक्षिणस्याम् कुन्देन्दुशङ्खस्फटिकावभासो वेदाक्षमालावरदाभयाङ्कः त्र्यक्षश्चतुर्वक्त्र गुरुप्रभावः सद्योऽधिजातो वतु माम् प्रतीच्याम् वराक्षमालाभयटङ्कहस्तः सरोजकिञ्जल्कसमानवर्णः त्रिलोचनश्चारु चतुर्मुखो माम् पायादुदीच्याम् दिशि वामदेवः वेदाभयेष्टाङ्गुषटङ्कपाश कपालडक्काक्षरशूलपाणिः सितद्युतिः पञ्चमुखोऽवतान्माम् ईशानवूर्ध्वम् परमप्रकाशः मूर्धानमव्यान्मम चन्द्रमौलिः फालम् ममाव्यादथ फालनेत्रः नेत्रे ममाव्याद्भगनेत्रहारी नासाम् सदा रक्षतु विश्वनाथः पायाच्छ्रुति मे श्रुतिगीतकीर्तिः कपोलमव्यात् सततम् कपाली वक्त्रम् सदा रक्षतु पञ्चवक्त्रः जिह्वाम् सदा रक्षतु वेदजिह्वः कण्ठम् गिरीशो वतु नीलकण्ठः पाणिद्वयम् वातु पिनाकपाणिः दोर्मूलमव्यान्मम धर्मबाहुः वक्षस्थलम् दक्षमखान्तकोव्यात् ममोदरम् पातु गिरीन्द्रधन्वा मध्यम् ममाव्यान्मदनान्तकारी हेरम्बतातो मम पातु नाभिम् पायात्कटिम् धूर्जटिरीश्वरो मे स्मरारिरव्यान्मम गुह्यदेशम् पृष्ठम् सदा रक्षतु पार्वतीशः ऊरुद्वयम् पातु कुबेरमित्रः जानुद्वयम् मे जगदीश्वरो व्यात् जङ्घायुगम् पुङ्गवकेतुरव्यात् पादौ ममाव्यात् सुरवन्द्यपादः महेश्वरः पादु दिनादिया मे माम् मध्यया मे वतु वामदेवः त्रिलोचनः पातु तृतीयया मे वृषध्वजः पातु दिनान्त्यया मे पायान्निषदौ शशिशेखरो माम् गङ्गाधरो रक्षतु माम् निशीथे गौरीपतिः पातु निशावसाने मृत्युञ्जयो रक्षतु सर्वकालम् अन्तःस्थितम् रक्षतु शङ्करो माम् स्थानुः सदा पातु बहिःस्थितम् माम् तदन्तरे पातु पतिः पशूनाम् सदाशिवो रक्षतु माम् समन्तात् तिष्ठन्तमव्याद्भुवनैकनाथः पायाद्व्रजन्तम् रमथाधिनाथः वेदान्तवेद्यो वतु माम् निषण्णम् मामव्ययः पातु शिवः शयानम् मार्गेषु माम् रक्षतु नीलकण्ठः शैलादिदुर्गेषु पुरत्रयारिः अरण्यवासादिमहाप्रवासे पायान्मृगव्याध उदारशक्तिः कल्पान्तकालोऽग्रपटु प्रकोपः स्फुटाट्टहासोच्छलिताण्डकोशः घोरादिसेनार्णवदुर्निवार महाभयाद्रक्षतु वीरभद्रः पत्यश्वमातङ्गरथावरूथिनी सहस्रलक्षयुतकोटिभीषणम् अक्षौहिणीनाम् शतमाततायिनाम् छिन्द्यान्मृडो घोरकुटारधारया निगन्धुदस्योन्प्रणयानलार्चिः ज्वलत्रिशूलम् त्रिपुरान्तकस्य शार्दूलसिंहर्षवृकादिहिंस्रान् सन्द्रासयद्वेषधनुः पिनाकः दुःस्वप्नदुःशकुन दुर्गदिदौर्मनस्य दुर्भिक्ष दुर्व्यसन दुःसह दुर्यशांसि उत्तापतापविषभीतिमसद्ग्रहार्तिम् व्याधींश्च नाशयतु मे जगतामधीशः ॐ नमो भगवते सदाशिवाय सकलतत्त्वात्मकाय सर्वमन्त्रस्वरूपाय सर्वयन्त्राधिष्ठिताय सर्वतन्त्रस्वरूपाय सर्वतत्त्वविदूराय ब्रह्मरुद्रावतारिणे नीलकण्ठाय पार्वतीमनोहरप्रियाय सोमसूर्याग्निलोचनाय भस्मोद्धूलितविग्रहाय महामणिमुकुटधारणाय माणिक्यभूषणाय सृष्टिस्थितिप्रणयकालरौद्रावताराय दक्षाध्वरध्वंसकाय महाकालभेदनाय मूलाधारैकनिलयाय तत्त्वातीताय गङ्गाधराय सर्वदेवाधिदेवाय षडाश्रयाय वेदान्तसाराय त्रिवर्गसाधनाय अनन्तकोटिब्रह्माण्डनायकाय अनन्त वासुके तक्षक कार्कोटक शङ्क कुळिक पद्म महापद्मेति अष्टमहानागकुलभूषणाय प्रणवस्वरूपाय चिदाकाशाय आकाश दिक्स्वरूपाय ग्रहनक्षत्रमालिने सकलाय कलङ्करहिताय सकललोकैककर्त्रे सकललोकैकभर्त्रे सकललोकैकसंहर्त्रे सकललोकैकगुरवे सकललोकैकसाक्षिणे सकलनिगमगुह्याय सकलवेदान्तपारगाय सकललोकैकवरप्रदाय सकललोकैकशङ्कराय सकलदुरितार्तिभञ्जनाय सकलजनदभयङ्कराय शशाङ्कशेखराय शाश्वतनिजावासाय निराकाराय निराभासाय निरामयाय निर्मलाय निर्लोभाय निर्मदाय निश्चिन्ताय निरहङ्काराय निरङ्कुशाय निष्कळङ्गाय निर्गुणाय निष्कामाय निरुपप्लवाय निरवद्याय निरन्तराय निष्कारणाय निरातङ्काय निष्प्रपञ्चाय निस्सङ्गाय निर्द्वन्द्वाय निराधाराय नीरागाय निष्क्रोधाय निर्लाय निर्लोपाय निष्पापाय निर्भयाय निर्विकल्पाय निर्भेदाय निष्क्रियाय निस्तुलाय निःसंशयाय निरञ्जनाय निरूपमविभवाय नित्यशुद्धबुद्धमुक्तपरिपूर्णसच्चिदानन्दाद्वयाय परमशान्तस्वरूपाय परमशान्तप्रकाशाय तेजोरूपाय तेजोमयाय तेजोधिपतये जय जय रुद्रमहारुद्र महारौद्र भद्रावतार महाभैरव कालभैरव कल्पान्तभैरव कपालमालाधर खड्वाङ्गचर्म खड्गधर पाशाङ्कुश डमरु त्रिशूल चाप बाण गदा शक्ति भिण्डी बाल तोमर मुसल भुषुण्डी मुद्गर पाश परिघषतग्नि चक्राध्यायुधभीषणाकार सहस्रमुख दंष्ट्राकराळवदन विकटाट्टहास विस्फाटितब्रह्माण्डमण्डल नागेन्द्रकुण्डल नागेन्द्रहार नागेन्द्रवलय नागेन्द्रचर्मधर नागेन्द्रनिकेतन मृत्युञ्जय त्र्यम्बक त्रिपुरान्तक विश्वरूप विरूपाक्ष विश्वेश्वर वृषभवाघन विषविभूषण विश्वतोमुख सर्वतोमुख माम् रक्ष रक्ष ज्वल ज्वल प्रज्वल प्रज्वल महामृत्युभयं शमय शमय अपमृत्युभयं नाशय नाशय रोगभयं उत्सादयोत्सादय विषसर्पभयं शमय शमय चोरान् मारय मारय मम शत्रून् उच्चाटयोच्चाटय त्रिशूलेन विदारय विदारय कुठारेण भिन्दि भिन्दि खड्गेन छिन्धि छिन्धि खड्वाङ्गेण विबोधय विबोधय मम पापं शोधय शोधय मुसलेन निष्पेषय निष्पेषय बाणैः सन्ताडय सन्ताडय यक्षरक्षांसि भीषय भीषय अशेषभूतान् विद्रावय विद्रावय कूष्माण्डभूतवेतालमारीगणब्रह्मराक्षसगणान् सन्त्रासय सन्त्रासय मम अभयम् कुरु कुरु नरकभयान् मामुद्धर उद्धर वित्रस्तम् माम् आश्वासय आश्वासय अमृतकटाक्षवीक्षणेन माम् आलोकय आलोकय सञ्जीवय सञ्जीवय क्षुतश्नार्थम् माम् आप्यायय आप्यायय दुःखातुरम् माम् आनन्दय आनन्दय शिवकवचेन माम् आच्छादय आच्छादय हर हर मृत्युञ्जय त्र्यम्बक सदाशिव परमशिव नमस्ते नमस्ते नमः ॐ सदाशिवाय अङ्गुष्ठाभ्यां नमः नम गङ्गाधराय तर्जनीभ्यां नमः मम मृत्युञ्जयाय मध्यमाभ्यां नमः शिंशूलपाणये अनामिकाभ्यां नमः वाम् पिनाकपाणये कनिष्ठिकाभ्यां नमः यम् उमापतये करतलकरपृष्ठाभ्यां नमः ॐ सदाशिवाय हृदयाय नमः नम गङ्गाधराय शिरसे स्वाहा मम मृत्युञ्जयाय शिखायै वषट् शिं शूलपानये कवचाय हुम् वाम् विनाकपानये नेत्रत्रयाय वौषट् यम् उमापतये अस्त्राय फट् भूर्भुवः सुवरोम् इति दिग्विमोकः ऋषभ उवाच इत्येतत् परमं शैवं कवचं व्याहृतं मया सर्वबाधा प्रशमनं रहस्यं सर्वदेहिनां यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम् न तस्य जायते क्वापि भयं शम्भोरनुग्रहात् क्षीणायुः प्राप्त मृत्युर्वा महारोगः तोऽपि वा सद्यः सुखमवाप्नोति दीर्घमायुश्च विन्दति सर्वदारिद्र्यशमनं सौमाङ्गल्यविवर्धनम् यो धत्ते कवचं शैवं स देवैरपि पूज्यते महापातकसङ्घातैर्मुच्यते चोपपातकैः देहान्ते मुक्तिमाप्नोति शिववर्माणुभावतः त्वमपि श्रद्धया वत्स्य शैवं कवचमुत्तमम् धारयस्व मया दत्तं सद्य श्रेयो ह्यवाप्यसि श्रीसूत उवाच इत्युक्त्वा ऋषभो योगी तस्मै पार्थिवसूनवे ददौ शङ्खं महारावं खड्गं वारिनिषूदनम् पुनश्च भस्म सम्मन्त्र्य तदङ्गं परितोऽस्पृशत् गजानां षट्सहस्रस्य द्विगुणस्य बलं ददौ भस्मप्रभावात् सम्प्राप्त बलैश्वर्यधृतिस्मृतिः स राजपुत्र शुशुभे शरदर्क इव श्रिया तमाह प्राञ्जलिम् भूयः स योगी नृपनन्दनम् एष खड्गो मया दत्तस्तपो मन्त्रानुभावतः सितधारमिमम् खड्गम् यस्मै दर्शयसि स्फुटम् स सद्यो म्रियते शत्रुः साक्षान्मृत्युरपि स्वयम् अस्य शङ्खस्य निर्घादम् ये शृण्वन्ति तवाहिताः ते मूर्च्छिताः पतिष्यन्ति न्यस्तशस्त्राविचेतनाः खड्गशङ्खाविभो दिव्यौ परसैन्यविनाशनौ आत्मसैन्यस्वपक्षाणाम् शौर्यतेजो विवर्धनौ एतयोश्च प्रभावेन शैवेन कवचेन च द्विषत्सहस्रनागानाम् बलेन महतापि च भस्मधारणसामर्थ्याच्छत्रुसैन्यम् विजेष्यसे प्राप्य सिंहासनम् पित्र्यम् गोप्तासि पृथिवीमिमाम् इति भद्रायुषम् सम्यगनुशास्य समातृकम् ताभ्याम् सम्पूजितः सोऽथ योगी स्वैरगतिर्ययौ।